ಓಂ ನಮೋ ಭಗವತೆ ಶ್ರೀ ರಮಣಾಯ ಅರುಣಾಚಲ ಪಂಚರತ್ನ ದರ್ಪಣಂ ಓಂ ಶ್ರೀ ರಮಣಧ್ಯಾನಂ ನೀಲಾರವಿಂದ ಸುಹೃದಾ ಸದೃಶಂ ಪ್ರಸಾದೇ ತುಲ್ಯಂ ತಥಾ ಮಹತಿತೋ ಯಜಬಾಂಧವೇನ ಬ್ರಾಹ್ಮ್ಯಾಂ ಸ್ಥಿತೌ ತು ಪಿತರಂ ವಟಮೂಲವಾಸಂ ಸಂಸ್ಮಾರಯಂತಮಚಲಂ ತಮನುಸ್ಮರಾಮಃ ನಾಮಂ ನಾಮಮಿದಂ ಧಾಮ ರಮಣಂ ನಾಮ ಭಾಮತಾಂ ಪಂಚಾನಾಂ ಪದ್ಯರತ್ನಾನಾಂ ಪ್ರಶಸ್ತಿಂ ಪ್ರಾರಭಾಮಹೇ ಅರುಣಾಚಲ ಕಾರುಣ್ಯ ವೈಭವಾದರ್ಶ ವಿಗ್ರಹಾಂ ಪ್ರಣುಮಸ್ಸಂಹತಿಂ ಭಾಸಾಂ ಭವಾಂಥತಮಸದ್ರುಹಾಂ ಅದ್ಭುತಂ ತನ್ಮಹತ್ಕಿಂಚಿತ್ ಅರುಣಾಚಲ ಸಂಜ್ಞಕಂ ಇತಿ ಧೀರಸ್ಯ ಧೀರಸ್ಯ ಕಾಚಿದಾಬಾಲ್ಯಭಾಸಿನೀ ಸ್ವರೂಪಬೋಧ ಸಂಪನ್ನಂ ಧಾತ್ರೀವ ಜನಕಾಂತಿಕಂ ಕುಮಾರನೇನ ಮಾನೈಷೀ ಚ ಅರುಣಾಚಲ ಸನ್ನಿಧಿಂ ಸೋಯಂ ಮಹರ್ಷಿ ಭಗವಾನ ಅಗಾಸೀದರುಣಾಚಲಂ ಆರ್ಯಾಗೀತಿಭಿರಾರ್ಯಾಣಾಂ ವಾಣ್ಯಾ ಪಂಚಭಿರ್ಜ್ವಲಂ ಅಶಿಕ್ಷಿತೋಪಿ ಗೈರ್ವಾಣೀ ಛಂದೋಲಂಕೃತಿರೀತಿಷು ದರ್ಶನೇನಾಪರೋಕ್ಷೇಣ ಶ್ರವಣಾದಂತರಶ್ರುತೇಃ ದುರ್ಗ್ರಹಣ್ಯಾಪಿ ತತ್ಪಾನಿ ಸುಗ್ರಹಾಣ್ಯಾದದನ್ಮುನಿಃ ರೋಚಯನ್ ಕಮನೀಯೇನ ಕಾವ್ಯಬಂಧೇನ ಗೀತವಾನ್ ದೀಪ್ತಯಾ ಪಂಚರತ್ನಸ್ಯ ಪ್ರಭಯಾಯ ಪ್ರಕಾಶ್ಯತೇನ್ ಚಿರುಮಸ್ತಂ ಸಮಾಸೇನ ರಮಣೀಯಾರ್ಥಸಂಚಯಂ ಅರುಣಾಚಲ ಸಂಬುದ್ಧಿಃ ಪಂಚಸ್ವವಿತಗೀತಿಷು ಪರಮಾತ್ಮನಿರಕ್ತಾನಾಂ ರತಿಂ ಧತ್ತೇ ರಸೋತ್ತರಾಂ ಹೃದಯಸ್ಯ ಪ್ರಸಾದ ಸ್ಯಾತ್ ಈಶ್ವರಸ್ಯ ಪ್ರಸಾದತಃ ತದಿಹಾದ್ಯೇನ ಪದ್ಯೇನ ಸ್ತೂಯತೇ ಕರುಣಾರ್ಣವಃ ನಿತ್ಯಃ ಸಮಾಶ್ರಯೋ ವಿಶ್ವಸ್ಯಾತ್ಮಾ ವಿಶ್ವಂತುನಶ್ವರಂ ಹೃದಯಸ್ಥಃ ಸ ಹೃದಯಂ ದ್ವಿತೀಯೇ ಪ್ರತಿಪಾದಿತಂ ಅಹಮೋನ್ವೇಷಣಾದಂತಃ ದೃಢ್ಯಾ ಶುದ್ಧಯಾ ಧಿಯಾ ಸ್ವಾತ್ಮಬೋಧಾತ್ ಪರಾ ಶಾಂತಿಃ ತೃತೀಯೇ ಪರಿಕೀರ್ತಿತಾ ಬರಿಹಿರ್ವಿಷಯಹಾನೇನ ಮನಃ ಪ್ರಾಣ ನಿರೋಧತಃ ಅಂತರ್ಧ್ಯಾನಯುತೋ ಯೋಗೀ ಪಶ್ಯತಿ ಜ್ಯೋತಿರೀಶ್ವರೇ ಮಹಿಮಾ ಸ ಮಹೇಶಸ್ಯ ಚತುರ್ಥೇ ಸಂಪ್ರಗೀಯತೆ ಏವಂ ಜ್ಞಾನಂಚ ಯೋಗಂಚ ಪ್ರಸಾದಾದಾಪ್ತಿ ತಸ್ಸರಂ ಪರನಿಶ್ರೇಯಸ ಪ್ರಾಪ್ತೇಃ ಉಪಾಯಂ ಭಗವಾನ್ ಋಷಿಃ ಸಂಕೀರ್ತ್ಯ ಪಂಚಮೇ ಪ್ರಾಹ ಪರಮಾಂ ಭಕ್ತಿಮಂತಿಮೇ ಸಮರ್ಪ್ಯ ಚಿತ್ತಂ ಸರ್ವೇಶೇ ವಿಶ್ವಸ್ಮಿನ್ ಪಶ್ಯತಃ ಪರಂ ಏಕಾಂತ ಭಕ್ತೇ ಸಿದ್ಧಸ್ಯ ಗೀತಾ ಸಂಪದನುತ್ತಮಾನ್ ಪರಮಾತ್ಮಗಮಧ್ಯಾನಂ ಏವಂ ಚರಿತಮಾತ್ಮನಾನ್ ದರ್ಶಯನ್ ದೇಶಿಕೇಂದ್ರೋಯಂ ಅಸ್ತೌಷೀ ದ್ರವಣಃ ಪರಂ ಅನುಗ್ರಹ ಸಮಾರಭ್ಯಾಂ ಆತ್ಮಸಿದ್ಧಿಕಥಾಂ ನಿಜಾಂ ಮಹರ್ಷೇ ದ್ಯೋತಯನ್ನೇಷ ಸ್ತೋತ್ರರಾಜೋ ವಿರಾಜತೆ ತದಿದಂ ಭಗವತಾ ರಮಣೇನ ಮಹರ್ಷಿಣಾ ಗೀರ್ವಾಣವಾಣ್ಯಾ ಆರ್ಯಾಗೀತಿಭಿಃ ಗೀತಂ ಅರುಣಾಚಲ ಪಂಚರತ್ನಂ ನಾಮ ಪದ್ಮಪಂಚಕಂ ವ್ಯಾಖ್ಯಾಸ್ಯತೆ ಅರುಣಾಚಲ ಪಂಚರತ್ನಂ ಪಂಚಾನಾಂ ರತ್ನಾನಾಂ ಪದ್ಯಶ್ರೇಷ್ಠಾನಾಂ ಸಮಾಹಾರಃ ಪಂಚರತ್ನಂ ಅರುಣಾಚಲಸ್ಯ ಪಂಚರತ್ನಂ ಪ್ರತಿಪಾದಕತ್ವ ಸಂಬಂಧೇ ಷಷ್ಠಿ ಅರುಣಾಚಲ ನಿರೂಪಿತ ಪ್ರತಿಪಾದಕತ್ವ ಸಂಬಂಧವತ್ ಪದ್ಯರತ್ನ ಪಂಚಕಮಿತಿ ಯಾವತ್ ಸಸ್ಯೇದಮಾದ್ಯಂ ಪದ್ಯಂ ಭವತಿ ಕರುಣಾಪೂರ್ಣ ಸುಧಾಬ್ಧೇ ಕಬಲಿತ ಘನ ವಿಶ್ವರೂಪ ಕಿರಣಾವಲ್ಯ ಅರುಣಾಚಲ ಪರಮಾತ್ಮನ್ ಅರುಣೋಭವಚಿತ್ತಕಂಜಸು ವಿಕಾಸಾಯ ಕರುಣೇತಿ ಕರುಣಯ ಅನುಕಂಪಯ ಪೂರ್ಣ ಸಮೃದ್ಧ ಕರುಣಾಪೂರ್ಣ ಸುಧಾಯ అమృతపదవాచ్యాయాః అబ్ధిః సముద్రః సుధాబ్ధిః కరుణాపూర్ణః చ అసౌ సుధాబ్ధిః చ కరుణాపూర్ణ సుధాబ్ధిః తస్య సంబుద్ధిః కిరణావల్య మయూఖమానయ కవలిత ఘన విశ్వరూప కవలితం ఘనం విశ్వస్య రూపం యేన తస్య సంబోధనం నిజారుణ ప్రభాపూర మజ్జత్ బ్రహ్మాండమండల ఇత్యర్థః అరుణాచల పరమాత్మన్ అరుణాచల ఏవ పరమాత్మ తస్య సంబోధనం అరుణః సూర్యవాచి జ్యోతిష ఉపలక్షణం తథా చేదం తేజసలింగక్షేత్రమాహుః స్థలపురాణవిదః అచలః అపి అక్షరవాచి తస్మాత్ అక్షరస్య జ్యోతిషః పరమాత్మనః సంబోధనం బోధ్యం తచ్చ జ్యోతిః అక్షరం పరమాత్మపదవ్యవహార్యం చిత్తకమల వికాసాయ భాసతాం అపి చతుర్థచరణేన ప్రార్థయతే చిత్తకంజసు వికాసాయ చిత్తం హృదయమేవ కంజం తస్య సువికాసాయ శోభనాయ వికాసాయ త్వం అరుణః సూర్యో భవ పద్మాయమానస్య హృదయస్య పద్మబాంధవాయస్య భగవన్నితి ప్రార్థనా కరుణాపూర్ణేత్యత్ర కరుణా అనుగ్రహదృష్టిః భవతి అనుగ్రహవిధానసమృద్ధిం రక్షయితుం కరుణాపూర్ణత్వం ఉక్తం సత్యమపి అనుగ్రహదృష్టౌ సామగ్రీ హ్యపేక్షతే యయా సా నిరూఢవ్యాపారకృతకృత్యా స్యాత్ సా చ పరమాత్మనః స్వరూపం అమృతం ఏవ సిద్ధం యేన కారుణ్యమాశ్రితేషు అమోఘం భవతి శోకమోహాదేహ మృత్యోః అమృతం హి భేషజం అవ్యయం అనవధికం ఇతి ద్యోతయితుం అబ్ధిరిత్యుక్తం అనుగ్రహదృష్టి సమృద్ధం శోకమోహాది మృత్యుప్రధ్వంసనం అవ్యయమనవం అధికం అమృతం పరమాత్మనః స్వరూపం ఇత్యర్థః అరుణాచలపదేనాక్షరం జ్యోతిరభిప్రేతం వ్యాఖ్యాతం తస్య కిరణావల్యా కవలితేత్యనేన అలౌకికేన జ్యోతిష విశ్వం వ్యాప్య స్థీయత ఇది బోధ్యం ఘనం ఇంద్రియగ్రాహ్యం స్థవిష్టం తేజస అభేద్యప్రాయం అంతస్తమస్సాంద్ర ఇది ద్యోత్యతే ఇయత అనవధికాకాశవిచారద్బహుల ఘోర విశ్వస్య రూపం గ్రాసమాత్రతయా గృహ్యతే అతః సహజశక్తివిశేషేణాం శమాత్రేణేదం విశ్వం సజీవం భునక్తి ఇతి బోధయితుం కబలనం ప్రాయుంజి ఏకః పరమాత్మ అమృతాంబోధిః కారుణ్యాస్పదస్య శోకమోహాది మృత్యుగ్రస్తస్య లోకస్య విశ్వకవలనజ్యోతిర్మయః స్వయం ప్రకాశస్య బహుళ బ్రహ్మాండస్య ఘనస్య విశ్వరూపస్య అచలః సర్వేషు చలత్సు సో అయమితి ప్రత్యభిజ్ఞానహేతుః అశేషస్వప్రచారసాక్షి అరుణః కమలాయమానస్య హృదయస్య ఏవం సుధాబ్ధిః జ్యోతిర్మయః అచలః సూర్యః ఇతి ఏకస్య పరమాత్మనో బహుధోల్లేఖనం హృదయంగమం కావ్యరసికానాం అయం ఉల్లేఖః నామాలంకారః కిరణావళిపదేన అలౌకికమయూఖమాలిన ఆక్షేపః చరమపాదే చ రూపకం తస్మాత్ రూపకోల్లేఖయోః తిలదండుల న్యాయేన మేలనాత్ సంసృష్టిః ఏవం కృపాసముద్రస్య పరమాత్మనః అనుగ్రహం అభ్యర్థ్య తస్య సాక్షాత్కార్యతాం సర్వకారణతాం స్వరూపం నామ చోపపాదయతి द्वितीयेन त्वय्यरुणाचलसर्वम् भूत्वा स्थित्वा प्रलीनमेतच्चित्रम् हृद्यहमित्याख्यतया नृत्यसि भोस्ते वदन्ति हृदयम् नाम त्वयीति अरुणाचला भोः ज्योतिर्मयाक्षर भगवन् त्वयि अधिष्ठाने आधारेव एतत्सर्वम् परिदृश्यमानम् इदम् चित्रम् आलेख्यम् भूत्वा भवम् प्राप्य स्थित्वा स्थितिम् लब्ध्वा प्रलीनम् विलयम् गतम् च भवतीति शेषः सः असि त्वम् यतः एतस्य सर्वस्य जगद्रूपचित्रस्य जन्मस्थितिभङ्गम् भवति अनेन जगदपेक्षया परमात्मस्वरूपम् रक्षितम् सर्वस्यास्य चित्रत्वोक्त्या अरुणाचलस्य चित्रपटस्थानीयत्वम् आक्षिप्यते जगतो वैलक्षण्यम् द्योतयितुम् जगदिति अनुक्त्वा एतत्सर्वमिति निर्दिश्य तत्र चित्रत्वमारोपितम् तेन चित्रस्थानीयम् जगत् चित्रपटस्थानीयम् परमात्मानम् अरुणाचलम् अन्तरा न गृह्यत इति गम्यते जगच्चित्रयोः साधर्म्यम् तु कलानिर्मित इति वाच्यम् चित्रकलानियमानुसारेण आलेख्यम् विरच्यते सर्जनकलानियमानुसारेण जगन्निर्मीयते यद्वा अचले त्वयि चलम् सर्वम् एतत् जन्मान्तरवत् भवतीत्येतत् चित्रम् विचित्रमाश्चर्यम् चलाचलयोः तमः प्रकाशयोः इव विरोधेः अपि घटितघटनापटीयथा शक्तिविशेषेण त्वत्तोऽस्य सर्वस्य उदयास्तमयदर्शनात् त्वदन्यतो अस्य जगत्चित्रस्य न अस्ति कारणसामग्रीति द्योतयितुम् त्वयीति सप्तमी यद्यपि ब्रह्माण्डकोटिचित्रस्याधारतया तवावस्थानम् भवति तथापि तस्य सर्वस्य निमित्तम् त्वम् अन्तर्ज्वलसीत्युत्तरार्धेनाः आत्मतया आत्मनोभावः आत्मता तया आत्मभावेन हृदि हृदये दहरे आकाशे अहम् इति नृत्यसि अस्मि इति अहम् इति रूपावतारः औणादिकम् अधिप्रत्ययपरकादशेः धातोः अस्मच्छब्दनिष्पत्तेः भोः भगवन् हृदये अस्मीति निरन्तरम् नर्तनम् कुरुषे अतो हेतोः ते तव नाम हृदयम् वदन्ति विज्ञा इति शेषः अहमिति निरन्तरस्फुरणमेवम् नर्तनम् सत्येवास्मीति स्फुरति द्रष्टरि अस्य सर्वस्य दर्शनम् सम्भवति तत्रैव जगच्चित्रदर्शनात् दर्शनादर्शनयोः व्यवहारः सम्पद्यते परमात्मनो नित्यत्वम् नित्यता जगतश्चानेन प्रतिपादिते बाह्यस्य जगदाकारचित्रस्य अधिष्ठानतया अखण्डस्वरूपस्य साक्षात्कारस्तावत् न भवति यावच्चित्रदर्शनम् भवति चित्रदर्शनात् निवृत्तायाम् दृष्टौ चित्रफलकस्थानीयम् अखण्डस्वरूपम् केवलानन्तर्दृष्टिरेवावशिष्यते सा च अस्मिताप्रत्ययास्पदम् हृदयम् भवति तदेव अहम्पदलक्षार्थः अरुणाचलाक्षः परमात्मा यस्मिन् उदयास्तमयौ लोकानाम् यस्यैव नर्तनात् अन्तर्वृत्तीनाम् बहिविषयाणाम् च व्यवहारः अत्र श्लोके पूर्वार्धेन जगतः तत्कारणस्य अरुणाचलस्य च चित्रतदाधारात्मकः सम्बन्धः प्रतिपादितः उत्तरार्धेन जीवस्य तदाश्रयतयावस्थितस्यारुणाचलस्य च स्वरूपात्मकः सम्बन्धः प्रतिपादितः। एवम् जगदाधारतया च यस्यावस्थानम् तस्य अरुणाचलस्य अहम्पदपरमार्थभूतहृदयशब्दवाच्यत्वम् उक्तम्। अतः एवोक्ता तस्य सहजनर्तनक्रिया इमामेव मायाम् आहो एके यया सर्वभूतानि भ्रामयन् ईश्वरो हृदये तिष्ठतीति गीतासु गीतम्। अथाहमर्थभूतेनात्मभावेन नृत्यन्नरुणाचलः अपरोक्षः चेत् स कथम् साक्षात्कार्यः? अतः तत्साधनमाह तृतीयेन। अहमिति कुत आयाति त्यन्वेष्यान्तप्रविष्टयात्यमलधिया अवगम्य स्वम् रूपम् शाम्यत्यरुणाचलत्वयि न दीवाद्धौ। अहमिति धीः स्मृतिर्वा कुतः कस्मात् आयाति आगच्छति उदेतीति यावत् इति अन्तः प्रविष्ट्या अत्यमलया धिया अन्विष्य विचित्य स्वम् रूपम् अहमः परमार्थम् स्वरूपम् अवगम्य बुद्ध्वा भोः अरुणाचल भगवन् त्वयि शाम्यति शान्तो भवति अहङ्कारी जीव इति शेषः। अब्धौ सागरे नदी इवेत्युपमानेन अहम् धियः परमात्मनि शान्तिरुक्ता अहम् ब्रह्मास्मि इत्यादि पृथ्विविचारनिरपेक्षम् स्वरूपान्वेषणम् साक्षात् साधनम् निरालम्बमुपदिष्टम् सर्वस्य अपि अहमस्मीति प्रत्ययप्रसिद्धेः अहम् प्रत्ययात् परतस्तस्यासिद्धेश्च आमतो अन्वेषणेन स्वरूपावगतिः भवति। अन्वेषणक्रिया तु अहम् धियैव साध्यते, तस्या एव स्वरूपावगतिः प्रवृत्तेः। अहम् धियाम् वृत्तिविक्षिप्तायाम् स्वरूपजिज्ञासैव न जायते, तस्याम् स्वरूपादन्यत्र वृत्तिषु विषयेषु वा चलन्त्याम् सत्त्वम् अशुद्धम् भवति। तीव्रजिज्ञासया प्रेरिता अहम् धीः सर्वार्थतायाम् अविमूढाः स्वच्छाः स्वरूपमन्वेष्टुम् प्रवर्तते। अत एव अन्तःप्रविष्टयात्यमलधिया इत्युक्तम्। अत्र साधकाः साधनम् सिद्धिः इति त्रिकेभ्यः मदपर्थार्थ एव बोध्यः विशेष विवेकस्त्वेवम् अहम्पदवाच्यार्थः आत्माभासस्त्वहङ्कृतः स्वरूपजिज्ञासुरेव साधकाः स्वरूपान्वेषणपरा शुद्धसत्त्वा अहन्धीः एव साधनम्। आत्मा हृदयनात्मा सत्त्वा प्रत्ययाश्रयः अस्मीति हृदि स्फुरन् केवलः अपरोक्षानुभवो अहम्पदलक्ष्यार्थः एव स्वतः सिद्धो भवति। एवम् साधनस्य आदौ मध्ये अन्ते सिद्धौ च निरन्तर अहमेव अप्रतिहतार्थो भवतीत्यवगन्तव्यम्। अथ सर्वासाम् वृत्तीनाम् अव्ययः अहमर्थो गतिरिति बोधनाय नदीनाम् सागरो गतिः इवेत्यौपम्ययुक्तम् अम्बोधिः सङ्गमादनन्तरम् यथा नद्याः पृथक्सत्ता व्यापारो वा नास्ति तथा अहमिस्वरूपम् प्राप्ते शान्तिरखण्डा भवति पुनरावृत्तिर्न विद्यते साधकोऽहम् सिद्धोऽहम् इति अहन्द्वयम् नेति बोधयितुम् सोऽहमस्मि इति धृढयितुम् स्वम् रूपमवगम्य प्राम्यति इत्युक्तम्। इदम् च सात्मान्वेषणरूपम् साक्षात् साधनमत्यन्तपक्वानाम् एकेषाम् एव सुकरम्। येषाम् अन्तःकरणवृत्तयः बाह्येन विषयेण अबाधिताः अन्तर्मुखतया अवतिष्ठन्ते तेषाम् अन्तः प्रविष्टया शुद्धया धिया स्वरूपान्वेषणमुपदिष्टम् येषाम् पुनः बाह्ये सत्त्वम् चित्तम् तेषाम् साधनम् उपदिशति चतुर्थेन पद्यरत्नेन त्यक्त्वा विषयम् बाह्यम् रुद्धप्राणेन रुद्धमनसान्तस्त्वाम् ध्यायन् पश्यति योगी दीधिचिमरुणाचल त्वयि महीयन्ते त्यक्त्वेति भोः अरुणाचला परमात्मन् योगी प्राणरोधेन चित्तरोधे प्रवृत्तः बाह्यम् विषयम् रूपादिम् जाग्रत्प्रज्ञभूमिम् त्यक्त्वा विहाय रुद्धप्राणेन रुद्धेन संयतेन प्राणेन वायुना कुम्भकेनेति यावत् रुद्धमनसा रुद्धेन निगृहीतेन मनसा मनोनिग्रहेणेति यावत् त्वाम् परमम् अन्तर्हृदये ध्यायन् प्रणिदधानः त्वयि अधिष्ठाने दीधितिम् किरणम् ज्योतिरित्यर्थः पश्यति साक्षात् कुरुते इयन्ते महि इयम् योगिजनान्तर्ध्यानगम्यज्योतिःस्वरूपा ते तव मही चित्प्रकाशभूः इत्यर्थः यस्याम् चित्प्रकाशभूमिकायाम् मनःप्राणसंयमवान् योगी अन्तरात्मध्यानेन स्वरूपम् ज्योतिः पश्यति सा तव महत्तेति भावः बाह्यविषयकलुषितस्य मनसः अन्तर्मुखता बाह्यविषयसङ्गत्यागेन साधनीया प्राणशुद्धिः क्वचिद्विषयसङ्गप्रध्वंसाय प्रभवति अत एव रुद्धप्राणेनेत्युक्तम् अपक्वपुरुषस्य प्राणः भोगेच्छापरतन्त्रो भवति तम् अनुधावति मनश्च प्राणरोधेन विषयान्निवृत्तिः सुकरा मनश्च तेन वशयितुम् शक्यमिति प्राणशुद्धिः मनःशुद्धिश्च प्राणायामादियोगाङ्गतया अभ्यस्येते योगिना विषयसङ्ग एव अशुद्धिः तस्मात् निवृत्तिरिष्यते तदुपायो मनःप्राणरोधसाधना विशेषबलात् सम्पाद्यत इत्युक्तम् केवल मनःप्राणरोधास्तु न वस्तुसिद्धिः तस्मात् अन्तर्ध्यानम् उक्तम् यदि अन्तर्मुखस्त्वम् प्रागेन परिपाकवशाद्विषयाकृष्टेः बलीयो भवेत् मनोरोधो यावत् अपेक्ष अयत्नतः सिद्धः स्यात् अन्तर्ध्यानोपकारित्वम् मनःप्राणयोः अवगन्तव्यम् न तु तावतैव स्वरूपावगतिः ताभ्याम् अन्तर्गाढाभ्याम् लयाख्यः समाधिविशेषः एव सिद्ध्येत् न तु आत्मबोधः स च अहमः परमार्थसाक्षात्कारेण भवति न पुनः अहमो विस्मारकेण लययोगादिना तस्मात् यदहम् इति स्मृतेः भानस्थानम् गमयति तत्सर्वम् साधनाङ्गतया स्वीकार्यमित्याशयेन ज्ञानाध्वनि भक्तिमता योगिना प्राणसंयममनोनिग्रहोपायः अभिमन्यते दीधितिम् पश्यतीति अनेन शुद्धान्तःकरणसचिवेन अन्तर्ध्यानेन युक्तस्य हृदये ज्योतिर्दर्शनम् भवतीत्युक्तम् इदम् च ज्योतिः अलौकिकम् परमात्मन्यारुणाचले स्वरूपे हृदये नित्यम् अस्मीति स्फुरतः अहमर्थस्य प्रकाशकम् बोध्यम् नेहदृग्दृश्यभेदाम्बुपगमात् द्वैतापत्तिः शङ्क्या अन्तर्ध्यानगम्यस्य हृदयज्योतिष आत्मनः अनन्यत्वात् अहम् वृत्तेरन्यव अहम् स्फूर्तिः स्वरूपम् ध्यायन्ति अहम् वृत्ति अहम् स्फूर्तौ पर्यवस्यतीति बोध्यम् वृत्तिस्फूर्त्योः एव भेदो न तु अहमीति ग्राह्यम् अपि च ज्योतिर्दर्शनमात्मदर्शनान्नातिरिच्यते दर्शनम् च साक्षात्कारः प्राग्वस्तुसिद्धेः ध्यायतः पुंसो ज्योतिर्दर्शनम् हृदये परमात्मन्येव सम्पद्यते धातृध्येयमात्मैकद्वैतस्य हृदि उपसंवार इति सिद्धान्तम् धृणयति त्वयि पश्यति इति प्रयोगः इयन्ते मही इत्युक्त्या एवम् योगिध्यानगम्यज्योतिर्भूमिः अखण्डचित्स्वरूपस्य अरुणाचलस्येति प्रतिपादितम् अथ चैकान्तभक्तेः आत्मसाक्षात्कारसम्पन्नस्य पुरुषस्य विश्वम् प्रति स्वरूपादन्यत्वेन अनुभवे सिद्धेः तस्यान्तर्बहिर्वा अखण्डस्वरूपम् प्रत्यक्षम् भवतीति तस्य सिद्धपुरुषस्य स्थितिम् महिमानम् च पञ्चमेन पद्यरत्नेन आह त्वय्यर्पितमनसा त्वाम् पश्यन् सर्वम् तवाकृतितया सततम् भजतेऽनन्यप्रीत्या स जयत्यरुणाचल त्वयि सुखे मग्नः त्वयीति भोः अरुणाचला त्वयि परमात्मनि अर्पितमनसा अर्पितेन मनसा अन्तःकरणेन सर्वम् विश्वम् तवाकृतितया त्वत्स्वरूपभावेन सततम् देशतः कालतश्च निरन्तरम् पश्यन् यः इति अध्याहार्यम् चतुर्थचरणे तच्छब्दप्रयोगात् यत्तदोर्नित्यसम्बन्धः च यः पुरुषः त्वाम् अनन्यप्रीत्या एकान्तभक्त्या भजते सेवते आश्रयते इत्यर्थः स तथाविधः सुखे आनन्दस्वरूपे त्वयि मग्नः शुद्ध्यर्थकान्मज्जतेः कः शुद्धः गाढमाप्लुतः इत्यर्थः जयति उत्कर्षेण वर्तते सोऽयम् सिद्धः पुरुषः यो जीवन्नेव मुक्तो जयति यस्मिन् मानुषम् जन्म परमम् साफल्यम् लभते यस्य मनः सम्पूर्णम् परमात्मनि समर्पितम् तत् अनन्यतया विलसति यस्य चक्षुः परमात्मानम् अखण्डस्वरूपम् सर्वत्र पश्यति यश्च बहिः अन्तर्वा अपरोक्षम् आत्मानमात्मारामो भजन् अखण्डानन्दस्वरूपे निमग्नो विजयते पञ्चवक्त्रभाग् पञ्चरत्नकृत भूमिमण्डलीमङ्गलायताम् रमणदेशिकोऽयमवताम् विभुः विजयतेतराम् विजयतेतराम् आर्षीरमणयोगवागेश श्रुतिर्वेषान्तरस्थित श्रुतिर्वेदशिरोभूषा मुमुक्षूणाम् मुदावः नानारुचीनाम् चित्तानाम् रोचनार्था शिवङ्करी द्वैताद्वैतदिवादानाम् उपसंहारदर्शिनी ज्ञानेन भक्त्या योगेन येन केनापि वाध्वन ईत्थताम् परमम् धाम सामरस्य विधायिनी भक्तिर्भक्तश्च भगवान् इति यस्य दृढा मतिः तस्येयम् कल्पलतिका भजनैकार्थसाधिका भरन्यास प्रपत्तिभ्याम् भजने चेन्मतम् तव सखे रहस्यम् तस्येह दृश्यतामुत सेव्यतम् पथिः पशुः पाश इति त्रेधा तव मतिर्यदि स्वरूपमह दृग्दिष्टम् बुद्ध्वा पाशाद्भिमोक्षसे हरो हरिरिति द्वेधा भज्यताम् वा परात्परः प्रत्यवा शेव विद्येते प्रकृतिर्न कदाचन परवस्तुनि सन्देहो भ्रातस्त्वाम् मैव बाधताम् सन्देहानम् विचिन्वानः परस्मिन् दीयते ध्रुवम् दयाद्विनष्टिशङ्का चेत् स्वरूपे परमात्मनि बुद्ध्यस्वमातरम् तस्याः अहम् मतिपिशाचिकाम् अहमोऽन्वेषणादेश भ्रान्तिः सर्वापलायते स्वात्मनिष्ठो यतो जीवन् बन्धान् मुक्तो विजेष्यते अशक्तिश्चेत्समन्वेष्टुम् आश्रयस्वात्मवित्तमम् प्रसरन्ति प्रभायस्य गलयन्त्यभितो गतान् निःश्रेयसपराशैषा भाषा भगवतो मुनेः जयत्वा सूर्यमा चन्द्रम् पञ्चरत्नस्तवाप्निकाम् लघ्विदम् पञ्चरत्नस्य निर्मितम् मितविस्तरम् गुरुप्रशस्तिसम्पुष्टम् व्याख्यानम् हृदयङ्गमम् ऋज्वर्थदर्शनम् यत्र न गतिः कुटिलाध्वगाम् भानुर्बिम्बमिव स्वच्छे दर्पणे प्रतिभासते अभीष्टम् गुरुपादानाम् इदमासीन्न पूरितम् तत्प्रभावानुबिम्बेन तच्छिष्येन जगत्कृतम् रमणाङ्घ्रि सरोजातः रसज्ञेन कपालिना काव्यकण्ठमुनेरन्तेः वासिना वाग्विलासिना कृतारमणपादाद्य किङ्करस्यापि किङ्कृता सती व्याख्या सताम् प्रीत्यै रमणस्येव कल्पताम् सम्प्रसादमाधुरी धुरी न भव्यभानुभिः पुष्णतोर्विभास्तवांसि मुष्णतोर्मदन्तरे मौनसारसम्पदो महर्षिपादपद्मयोः पञ्चरत्नदर्पणम् स दर्पणाय कल्पताम् इति श्रीमहर्षिरमणभगवत्पाद अनुध्यात श्रीभगवद्वसिष्ठगणपतिमुनेः अन्तेवासिनः भारद्वाजस्य विश्वेश्वरसूनोः कपालिनः कृतिः पञ्चरत्नदर्पणाख्या पञ्चरत्नव्याख्या समाप्ता। ॐ नमो भगवते श्रीरमणाय। ॐ शान्ति शान्ति शान्तिः।